सर्वेभ्यो नमस्काराः. कक्षाणां पुनरारम्भं कुर्मः. कौमुद्याः अजन्तपुल्लिङ्गप्रकरणे चतुर्दशः भागः. फेब्रवरी मासस्य एकादशः दिनाङ्कः. अजन्तपुल्लिङ्गेषु आकारान्तेभ्यः आरभ्यते. येनाक्षरसमां नायमधिगम्य महेश्वरान् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. मुनित्रयन्नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. इदानीम् आकारान्तपुल्लिङ्गैः आरभ्यते. अकारान्तपुल्लिङ्गाः अधीताः. रामशब्दादारभ्य द्व्यह्नः व्यह्नः सायह्नशब्दपर्यन्तं ये शब्दाः ते सर्वे अधीताः. अद्य पुनरावर्तनं किमपि नास्ति. ऐ होप् यु आल् रिमेम्बर् वाट् वी वेंट थ्रू. नौ वी आर् फिनिशिङ्ग्. दीक्षितर् गोस् इन् द अल्फबेटिकल् आर्डर्. सो वी फिनिश्ड् आकारान्तस् एण्ड् वि आर् स्टार्टिङ्ग् वित् आकारान्तपुल्लिङ्गस्. आकारान्तपुल्लिङ्गस् आर् एक्चुली वेरि रेर् at the lower levels. What they teach is if it's akaranta it is pullinga, if it's akaranta it can be considered as strilinga and so on. So they are very rare, but still they are there. So and since this is a vyakarana grantha, he should deal with it to be comprehensive. So vishvapa iti shabdah akarantah pullingah katham nishpattih iti chet vishvam pati ityarthe pa rakshane iti rakshanarthakah pa dhatuh आदादिकः. इट्स् धातु विच् बिलाङ्ग्स् टु द सेकेण्ड् गण. पाति नाम रक्षति. विश्वं रक्षति इत्यर्थः. पा इति धातोः विच् इति प्रत्ययः भवति कृदन्तः. ततः उपपदसमासः उपपदमति इति सूत्रेण उपपदसमासः विश्व पा इति प्रातिपदिकं. कृत्तद्धितसमासाश्च समासत्वात् कृत्तद्धितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा भवति. So Vishwapa is our Pratipadika. Since it ends in a Dirgha Akara, we call it an Akaranta and it is a Pullinga. It could be anything. Vishwapa need not be Pullinga. So Vishwam Pati, Devahasya, Deva, Devisya. It could be either Pullinga or Strilinga. But the forms now we are considering it to be a Pullinga. Vishwam Pati Kashchana Ityarthe Pratipadikam Vishwapa Iti Kim Bhavati Tataha. इति चेत् द निष्पत्ति वाट् ऐ शोड् इन् द प्रीवियस् थिङ्ग् वास् एक्चुलि फार् मै रिविजन्. यु आर् नाट् एक्सपेक्टेड् टु रिमेम्बर् आल् दिस् नौ, बट् इट् इस् स्टिल् देर् इफ् पीपल् दे आर् इण्ट्रेस्टेड्. देर् इस् विश्व इस् अ उपपद. द पाधातु गेट्स् अ विच् प्रत्यय. विच् इस् अ सफिक्स् कृदन्त सफिक्स् विच् इस् आडेड् बै द सूत्र. अन्येभ्योऽपि दृश्यन्ते. दिस् इस् एक्चुलि अ वेरि क्वियर् प्रत्यय. देर् आर् अ सेट् आफ़् प्रत्ययस् लैक् क्विप् अण्ड् विच् अण्ड् अदर्स् where the suffix is not heard at all. Everything in the suffix is deleted. Say, in which the ikara gets itsamya by upadesha yajana nasikaita, chakarasya halante mitsena itsamya ubhayohu lopaha, vakaraha shishyate, tataha tasya vakarasya api veraprakthasya ityanena lopo jayate. So it is completely removed. You add a suffix and remove it, but now the speciality is that it becomes a kridanta. Right? So now it remains as pa. There is in some cases where there might be a change in the prakriti, say there might be a samprasarana or something, but there are many cases where the prakriti remains as it is. You cannot see any visible change by adding the pratyaya, but still it is called a pratyayanta. It is a kridanta now. With this kridanta we do an upapada samasa, like kumbham karoti iti kumbhakarah. We have vishvam pati iti vishva इति प्रातिपदिकेन सह पा इति कृदन्तेन सह समासः भवति. विश्वपा इति समस्तं पदं, तस्य प्रातिपदिकसंज्ञा कृत्तधितसमासाश्च इत्यनेन. तस्य ऐ रिमेम्बर् द प्रक्रिया, हौ वि गो अबौट् द प्रक्रिया. सौजसमोचस् इत्यादिना सूत्रेण प्रथमैकवचने विवक्षिते सु प्रत्ययः. प्रत्ययस्य उकारस्य उपदेशयजननासिकैत इत्यनेन इत्संज्ञा, तस्य लोपः. विश्वपा सु तिष्ठते. ससजुषोरुः इति सकारस्य स्थाने पदान्तस्य सस्य ऋत्वं स्यात् इत्यन्तत्वात् दिस् इदं पदं. कथमिदं पदं? हौ इस् दिस् अ पद? वेरि सिम्पल् क्वश्चन्, बट् ऐ जस्ट् ट्रैङ्ग् टु गेट् यु बेक् टु ट्राक्. प्रसूजी सॉरी सुप्तिङन्तं पदम् इति सूत्रेण विश्वपा इति प्रातिपदिकं सुप्रत्ययः कृतः प्रत्ययान्तं यद्भवति सुप्तिङन्तं पदं सुबन्तं तिङन्तं च पदसंज्ञं स्यात् इत्युक्तत्वात् तस्य पदसंज्ञा भवति पदत्वात् ससजुषोरुः पदान्तस्य सस्य सजुशब्दस्य च रुः स्यात् इति सूत्रार्थः पदान्ते विद्यमानः सकारः तस्य स्थाने रु रुत्वं विधीयते तत्रापि उकारस्य इत् संज्ञा अस्ति उपदेशे अजननासिक इत् अनुनासिकत्वादित् संज्ञा तस्य लोपः विश्वपा ऋ ततः खरवसानयोर्विसर्जनीयः इति रेफस्य स्थाने विसर्गः आदेशः क्रियते सो विश्वपाः इति प्रथमाविभक्तौ एकवचनम् इवन् दट् सौण्ड्स् लैक् रामाः दिस् हेपन्स् टु बि एकवचनम् ओके विश्वपाः इति एकवचनान्तं रूपम् ततः औ विश्वपा औ सु औ द्विवचने विवक्षिते औ प्रत्ययः किं भवेदत्र वाट् शुड् बि गेट् कस्य सूत्रस्य प्रवृत्तिः भवेत् औ प्रत्यये परतः Suji? Okay. So, yes. So, first thing is correct, yeah. There is a prapti of prathamayoho purvasavarnaha. Akaha prathamadvitiyayoho achipare purvasavarnadirghaha ekadeshaha syat. Whenever an ach is followed by, akvarna is followed by an ach of the prathama or dvitiya vibhakti, there should be prathamayoh purvasavarnaha. Ittenena purvasavarnadirghaha syat. Prathamayoh purvasavarnaha iti purvasavarnadirghe prapte kim bhavati. Ityapi uktam tena mahodayena. Nadichi iti nishethaha bhavati iti. Kittu dikshitaihi annyadekam nishetha sutram upasthapyate atra dirgha jasicha. Iti agrimam sutram. Padatrayam vidyate dirghat jasicha. प्रथमयोः पूर्वसवर्णः इत्यतः पूर्वसवर्णः इति अनुवर्तते नादिचि इति सूत्रात् न इति अनुवर्तते पूर्वसवर्णदीर्घः न भवति कदा न भवति दीर्घात् जसि परे दीर्घवर्णात् जस् प्रत्यये परे च इत्यस्मात् इचि इत्यपि अस्ति नादिचि इत्यतः न इति अनुवर्तते इचि जसि इचि च परे दीर्घात् जसि इचि च परे पूर्वसवर्णदीर्घः न स्यात् इति सूत्रार्थः Whenever a long vowel, dirgha is followed by either jas pratyaya or ich. Ich iti pratyaharaha. E, U, R, R, A, O, I, O. Akaram vihaya nesham swaranam pratyaharaha. Ich iti. Jasi pratyaya pare, ich varane pare cha. Dirghat pare, pura savarna dirghaha na bhavati. So, we see here, vishvapa au ityasti. Ayam vishvapa iti dirghaha. दीर्घात् औकारः इच्वर्णः दीर्घात् इच्वर्णे परे पूर्वसवर्णदीर्घः न भवति इति पूर्वसवर्णदीर्घनिषेधः सो सिन्स् दिस् सूत्र निगेट्स् पूर्वसवर्णदीर्घ वि गो बेक् टु द ओरिजिनल् सूत्र विच् वास् वृद्धि विश्वपा औ इति स्थिते वृद्धिरेचि इति सूत्रेण आद् एचि परे वृद्धिः एकादेशः स्यात् वृद्धौ विश्वपौ इति रूपं विश्वपाः विश्वपौ Any questions? Okay. So, prashnaha. Masu mahodayena api uktam. Nadichi itteva purvasavarnadirgha nishedhaha bhavitum arhati. Ad ichi pare. अवर्णादिचि परे पूर्वसवर्णदीर्घः न स्यात् इत्येव पूर्वसवर्णदीर्घनिषेधे प्राप्ते अस्य सूत्रस्य का वा आवश्यकता इति चेत् अग्रे पश्यावः विल् सी नेक्स्ट् दीक्षितर् हिम्सेल्फ़् रैसेस् अ क्वश्चन् अण्ड् आन्सर् प्लीस्
नेक्स्ट जसी प्रत्यये परे किं भवति सवर्णदीर्घः विश्वपा जस् अस् इति स्थिते अत्रापि आदौ सवर्णदीर्घः प्राप्नोति तद्बाधित्वा प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते दीर्घात् जसि च अत एव उक्तं दीर्घात् जसि परे इचि च परे पूर्वसवर्णदीर्घनिषेधः जस् प्रत्यये परे निषिद्धत्वात् अत्र पूर्वसवर्णदीर्घः न भवति अकस्सवर्णे दीर्घः इत्यनेन सवर्णदीर्घे विश्वपास् ऋत्वं विसर्गः विश्वपाः विश्वपाः विश्वपौ विश्वपाः प्रथमविभक्तौ एकवचने बहुवचने च समानं रूपम् द सेम् फार्म् इन् बोत् सिङ्ग्युलर् एण्ड् प्लूरल् फार् दिस् शब्द सो नौ यद्यपि इह औङि नादिचि इत्येव सिद्धं निश्चितैरेव कौमुद्याम् उच्यते इह औङि औङ् नाम औप्रत्ययः औप्रत्यये परे नादिचि अवर्णादिचि परे पूर्वसवर्णदीर्घः न इत्युक्तत्वादेव सिद्धं किं सिद्धं पूर्वसवर्णदीर्घनिषेधः सिद्धः इवन् विथौट् दीर्घाजसि च वि केन् निगेट् पूर्वसवर्णदीर्घ बिकास् यूसिङ्ग् नादिचि द क्वश्चन् इस् हौ डु वि निगेट् इन् जस् बिकास् नादिचि सेस् ओन्लि इचि परे पूर्वसवर्णदीर्घः न वाट् हेपन्स् इन् जस् जसि तु सत्यपि पूर्वसवर्णदीर्घे क्षतिर्नास्ति इन् जस् वेन् अकार इस् फालोड् बै जस् वेदर् यु डु पूर्वसवर्णदीर्घ आर् अकस्सवर्णे दीर्घः दर् इस् नो डिफ़्रेन्स् right when there is vishwapa and as whether you use prathamayo purva savarnaha or akasavarne dirghaha the resultant letter is the same you have an akara as the ekaresha the form would be the same so in au when followed by au you can use nadichi to prevent purva savarna dirgha when followed by this you don't need to prevent purva savarna dirgha for akara because akara when followed by akara always gives akara whether by purva savarna dirgha or by normal savarna dirgha सो वै डु वि नीड् दिस् सूत्र तथापि गौर्यौ गौर्यः इत्याद्यर्थं सूत्रं द सूत्र द आक्चुवल् पर्पस् आफ् द सूत्र इस् टु डिरैव् फार्म्स् लैक् गौर्यौ गौर्यः यु हव् गौरी औ तत्र नादिचि इत्यनेन पूर्वसवर्णदीर्घः न भवति बिकास् इट् इस् नाट् आत् आत् इति परे पूर्वसवर्णदीर्घनिषेधः उच्यते नादिचि बट् गौरी देर् इस् नो आकार So you cannot use nadichi. That is why we need the sutra dirghat jasicha. So dirghaswarat ichi pare purasavarna dirghaha nasti. Similarly, gauryaha. There also, to prevent purasavarna dirgha. There is a difference. If we do purasavarna dirgha, it would be gauri. If we prevent purasavarna dirgha, there would be yan to give gauryaha. So there we need to prevent purasavarna dirgha. So for that, we need the sutra dirghat jasicha. So the purpose of Dirghajasicha is not to derive forms Vishvapau Vishvapaha. It is to derive the forms Gauryau Gauryaha. Tathapi Gauryau Gauryaha Ityadhyartham Sutram Ihapi Nyayatva Upanyastam. Nyayam is when we have the sutra, it is always right to use it. When there is Dirghajasicha which prevents, which applies in this case, that is one thing which we have to remember about all sutras. If there is a possibility of application of that sutra, the sutra will apply. You cannot say, even if the conditions are satisfied, okay, no need of a sutra. There is no case where that would happen. If the conditions are satisfied, the sutra will definitely apply. Here, the conditions for Dirgha Jasicha are satisfied. Therefore, in Jas, we do prevent Purasavarna Dirgha by Dirgha Jasicha, even if Purasavarna Dirgha would not have given a wrong form. The form would have been correct with or without Nishedha. But still, since the sutra, the conditions for the sutra are satisfied, we apply the sutra. And in case of Au, the question is, should we use Nadichi or Dirghajasicha? So, I mean, the resultant is the same. Tathapi Paratvat. Since Dirghajasicha is the later sutra, we use it to prevent Purasavarna Dirgha and not Nadichi. Okay. So, since the sutra is there, it is true that for this particular case, we do not, that sutra is not mandatory. But still, since the sutra is mandatory for some other form, it exists. And since it exists and the conditions for it are satisfied here also, we apply the sutra here also. So he says, Tathapi Gauryau Gauryaha Ityadhyartham Sutram Ihapi Nyayatvat Upanyastam. Okay. Any questions? Okay, shall we move on? So we have Vishvapaha, Vishvapau, Vishvapaha. Hey Vishvapaha. You have Hey Vishvapa and Su. What happens in Hey Rama, Su? Rama Shabdasya Sambodhane Prathamaya Bhakta Vekavachane Kim Bhavati. हे राम सु इति स्थिते किं भवति रविचंद्रन जी संबुद्धि लोपः केन सूत्रेण హలో రవిచంద్రన్ జీ ఓకే 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 ఎనీబడి రిమెంబర్స్ ద సూత్ర హే రామ సూచిస్తుంది సుప్రత్యయస్య లోపే హే రామ ఇది రూపం లోపః కేన సూత్రేణ వాట్ ఈస్ ద సూత్ర విచ్ మ్యాండేట్స్ లోప No, it is not aprakta lopa. It is not thalyam vya dirgha. It is aprakta mahal. Vasu ji? Correct. Eng? హల్లుప్యతే సంబుద్ధేశ్చేత్ ఏంగంతాత్ హ్రస్వాంతాత్ చంగాత్ హల్లుప్యతే సంబుద్ధేశ్చేత్ సో సిన్స్ రామ ఇస్ ఎ హ్రస్వాంత అంగ వి డిలీట్ ద సుప్రత్యయ ఇట్ బికమ్స్ హే రామ బట్ సిన్స్ విశ్వపా ఇస్ దీర్ఘ వి కెనాట్ డిలీట్ ఇట్ సేస్ ఏం హ్రస్వాత్ సంబుద్ధే తస్మాత్ ఇహ సంబుద్ధిలోప న భవతి యథా ప్రథమ విభక్తౌ తథైవ సు ఇత్యస్య రుత్వం విసర్గ హే విశ్వపాః హే విశ్వపౌ హే విశ్వపాహ దెర్ ఇస్ నో డిఫరెన్స్ ద ఫార్మ్స్ ఇన్ సంబోధన ప్రథమ ఆర్ ద సేమ్ యాజ్ ఇన్ ప్రథమ విభక్తి తత అమ్ ప్రత్యయ విశ్వపా అమ్ ద్వితీయ విభక్త ఏకవచనే సౌజ సమోక్ష ఇత్యాదిన అమ్ ప్రత్యయే కిం భవతి వాట్ హ్యాపన్స్ హియర్ విశ్వపా అమ్ किं भवति विश्वपा अम् इति सूत्रे राम अम् इति सूत्रे किं भवति हीरालाल जी अमिपूर्वः सत्यम् अमिपूर्वः इत्यनेन पूर्वरूपम् This is one thing which you do not even need to think about. Wherever, whatever the Shabda it is, if it is an Ajanta Pada, I mean in Halantas it will not apply. So if it is an Ajanta Pada, wherever you have, it is Amipurvaha. There is no, there is only one sutra which overrules Amipurvaha. You can take it as 95% of the cases, if it is Ampratyaya, it has to be Amipurvaha. Amipurvaha ityanena purva rupe sati Vishvapam. The rupam. విశ్వపాః విశ్వపౌ విశ్వపాః విశ్వపాం విశ్వపౌ సమానం ఔ ప్రత్యయే పూర్వసవర్ణదీర్ఘం బాధిత్వా దీర్ఘాజసి చ ఇతి నిషేధస్య సత్వాత్ పూర్వసవర్ణదీర్ఘం బాధిత్వా వృద్ధిరేచి ఇతనేన వృద్ధౌ విశ్వపౌ తతః కిం భవతి ఇతి ప్రశ్నః విశ్వపా షస్ ప్రత్యయః అస్తి షసి షకారస్య లషక్వతధ్యతే ఇతి సంజ్ఞా అస్ ఇతి శిష్యతే విశ్వపా అస్ అత్ర తు దీర్ఘా జసి చ ఇతి న భవతి జస్ ప్రత్యయః నాస్తి ఇచ్చపి నాస్తి నాదిచి ఇత్యపి న భవతి తేన కిం భవేత్ ప్రథమయ పూర్వసవర్ణః ఇత్యనేన పూర్వసవర్ణ దీర్ఘః భవేత్ కింతు తదపి బాధిత్వా యాక్చువల్లీ వి షుడ్ హావ్ గాట్ ప్రథమయ పూర్వసవర్ణః బట్ ప్రివెంటింగ్ దట్ ఇస్ అ సూత్ర ఆతో ధాతోః ఇది అగ్రిమం సూత్రం పదద్వయమేవ విద్యతే ఆతః ధాతోః अङ्गस्य इत्यधिकारः भस्य इत्यपि अधिकारः अधिकारद्वयम् अस्ति. तद् अङ्गाधिकारः विच् स्टार्ट्स् फ्रम् 641 एण्ड् द भाधिकारः विच् स्टार्ट्स् फ्रम् 641:29. सो द कण्डीशन् फार् दिस् सूत्र इस् द अङ्ग हेस् टु बि भ. दट् इस् वै वि आर् स्टार्टिङ्ग् इट् फ्रम् शस्. Somebody tell me what is bha? What is the sutra for bhasamya and when do we have bhasamya? Hiralalji. Yachi bham iti bhasamya vidhayakam sutram. कः अर्थः? वेन् डु वि गेट् भसम्य? नो, इट् इस् नाट् एट् द एण्ड् आफ् द अङ्ग. वेन् य आर् अच् इस् एट् द बिगिनिङ्ग् आफ् द प्रत्यय. सो वेन् यकार आर् अच् A oval is at the beginning of a pratyaya, the prakriti part is called bha. Okay? So it should not be sarvanamasthana also. So the first five things, swadhi pancha pratyayanam sudanapumsakasyatyanena sarvanamasthanam iti samya vidyate. Asarvanamasthana yajadi swadhi pratyaye parataha. So when any prakriti is followed by swadhi pratyaya, which starts with either yakara or ach, then that is called bha. Okay, bha is a samya. So the general rule what we say is after the au, su au jas ammau ityanantaram, yadi ajadihi pratyaha tarhi bha samya, yadi haladihi pratyaha tarhi pada samya, swadisha sarvanamasthane ityanena pada samya. That is the division which you should always remember. We are talking only of these 21, su au jas to ni os sup. Among these 21, there are three major divisions. The first five pratyayas, su, au, jas, am, au, are called sarvanamasthanas. There are karyas which are specifically catering to sarvanamasthana only. After that, again, there are two. Any pratyaya which begins with an oval will be called bha, and any when followed by any pratyaya which is beginning with an oval, the anga part is called bha, and when followed by a haladi pratyaya, it will be called pada. So there are different karyas which are meant for bhasamya. Wherever there is bhasamya, there are different karyas which happen wherever there is padasamya. So these are three major divisions which we should always remember when we are dealing with these subantas. Okay? In among supratyas, there are three things. The first five form a set. Among the rest, any ajadi pratyaya is one set and haladi pratyaya is another set. Okay? Now this particular sutra applies for bhasamya, which means an ajadi pratyaya starting from shas. Alloponaha ityataha lopaha ityapi anuvartate. Kaha arthaha? Akarantaha yaha dhatuhu. Ataha iti dhatuhu visheshanam. Tadanta vidhau akarantaha dhatuhu. There should be a dhatu which ends with akaranta. Tadantasya bhasya angasya. And there should be an anga which is ending with that dhatu. So remember our own this. Vishvapa ityasti. पा रक्षणे. पा इति आकारान्तः धातुः. विश्वपा इति तदन्तम् अङ्गम्. अङ्ग विच् एण्ड्स् वित् एन् आकारान्त धातु. दिस् इस् विश्वपा. एण्ड् नौ वेन् फालोड् बै शस् प्रत्यय, दिस् गेट्स् द भसंज्ञा बै यचिभम्. सो आल् कण्डीशन्स् आर् सेटिस्फै. देर् आर् त्री कण्डीशन्स्. फस्ट् थिङ्ग्, देर् शुड् बि अ धातु विच् एण्ड्स् वित् आकार. सेकेण्ड् थिङ्ग्, देर् शुड् बि एन् अङ्ग विच् इस् एण्डिङ्ग् इन् दट् पर्टिक्युलर् धातु. एण्ड् द थर्ड् थिङ्ग्, देर् शुड् बि भसंज्ञा. So far, when we dealt with the first five pratyayas, even though there was a dhatu and an anga ending with that, there was no bhasamya. Since bhasamya is starting from shas pratyaya, asya sutrasya pravrittihi adhunaiva. Astu, akarantaha yaha dhatuh, tadantasya bhasya angasya lopaha syat. Alontasya, kasya lopaha bhavati, angasya lopaha ityuktam. We cannot delete the entire anga. The anga is vishvapa. Should we delete the entire Vishwapa? No. Tada kim bhavati? Alontyasya. Iti antyasya akarasya lopa. Any vidhi always happens for the antya. So antyasya nama akarasya eva lopa kriyate. Kim bhavati dani? Vishwapa shas aspratyaya. As iti shishyate shas pratyaya. ಆಕಾರಸ್ಯ ಲೋಪೆ ವಿಶ್ವಪ್ ಅಸ್ ಇತಿ ಭವತಿ. ಯಚಿಭಂ ಇತಿ ಸಂಜ್ಞಾಯಾಂ ಸತ್ಯಾಂ ಅತೋ ಧಾತೋಃ ಇತಿ ಸೂತ್ರೇಣ ಆಕಾರಸ್ಯ ಲೋಪಃ ವಿಶ್ವಪ್ ಅಸ್ ಆಕಾರಸ್ಯ ಲೋಪಃ ತತಃ ಋತ್ವಂ ವಿಸರ್ಗಃ. ವಿಶ್ವಪಸ್ ಇತ್ಯಸ್ತಿ ಸಕಾರಸ್ಯ ಸ್ಥಾನೇ ಸಸಜುಷೋರುಃ ಇತಿ ಋತ್ವೇ ಖರವಸಾನಯೋ ವಿಸರ್ಜನೀಯಃ ಇತ್ಯನೇನ ವಿಸರ್ಗೇ ವಿಶ್ವಪಃ. ವಿಶ್ವಪಃ ಇತಿ ಬಹುವಚನಂ, ದ್ವಿತೀಯ ಬಹುವಚನಂ. ಐ ಮೀನ್ ಇಟ್ ವುಡ್ ಬಿ ಎ ಟೆಂಡೆನ್ಸಿ ಟು ಡಿಕ್ಲೈನ್ ದಿಸ್ ಆಸ್ ವಿಶ್ವಪಃ ವಿಶ್ವಪೋ ವಿಶ್ವಪಾಹ, ವಿಚ್ ಇಸ್ ರಾಂಗ್. ವಿಶ್ವಪಃ, ಬೋತ್ ಫಾರ್ಮ್ಸ್ ಆರ್ ದೇರ್. ವಿಶ್ವಪಃ ಇಸ್ ಆಲ್ಸೋ ದೇರ್ ಅಂಡ್ ವಿಶ್ವಪಾಹ ಇಸ್ ಆಲ್ಸೋ ದೇರ್, ಬಟ್ ದೇರ್ ಇಸ್ ಅ ಡಿಫರೆನ್ಸ್. ವಿಶ್ವಪಃ ಇಸ್ ದ್ವಿತೀಯ ಬಹುವಚನ, ವಿಶ್ವಪಾಹ ಇಸ್ ಪ್ರಥಮ ಏಕವಚನ ಅಂಡ್ ಬಹುವಚನ. ಸೊ ವಿಶ್ವಪಾಹ ವಿಶ್ವಪೌ ವಿಶ್ವಪಾಹ, ವಿಶ್ವಪಾಂ ವಿಶ್ವಪೌ ವಿಶ್ವಪಃ. ಅಗ್ರೆ ತಥೈವ ಯತ್ರ ಯತ್ರ ಅಜಾದಿಹಿ ಪ್ರತ್ಯಯಃ ಅಥವಾ ಟಾ ಪ್ರತ್ಯಯಃ ತತ್ರ ಸರ್ವತ್ರ ಆಕಾರಸ್ಯ ಲೋಪಃ. ವಿಶ್ವಪಾ ಆ ಟಾ ಇತ್ಯತ್ರ ಚುಟು ಇತ್ಯನೇನ ಟಕಾರಸ್ಯ ಸಮ್ಯ ಆ ಇತಿ ಶಿಷ್ಯತೆ. ವಿಶ್ವಪಾ ಆ ಪೂರ್ವಸ್ಯ ಅಂಗಸ್ಯ ಆಕಾರಸ್ಯ ಲೋಪೆ ವಿಶ್ವಪ್ ಆ ವಿಶ್ವಪಾ. ವಿಶ್ವಪಾಭ್ಯಾಂ ಇತ್ಯತ್ರ ತು ಆಕಾರಸ್ಯ ಲೋಪಃ ನಾಸ್ತಿ. ಕಿಮರ್ಥಂ ನಾಸ್ತಿ? ವೈ ಡೋಂಟ್ ವಿ ಡಿಲೀಟ್ ದಿಸ್ ಆಕಾರ ಹಿಯರ್? When followed by ta, we deleted the akara by ato dhatohu. Why not in vishvapabhyam? Correct. So, there is no bhasamya. Since it is not an ajadi pratyaya, bhyam is a haladi. So, there is padasamya and there is no bhasamya. So, that is why the ato dhatohu comes under the bhadhikara. Bhasya ityadhikare patitam. ತಸ್ಮಾತ್ ಭಸಂಜ್ಞಾಯಾಂ ಸತ್ಯಾಮೇವ ತಸ್ಯ ಪ್ರವೃತ್ತಿಃ ಅತ್ರ ತು ನ ಭವತಿ. ಯತ್ರ ಅಜಾದಿಃ ಪ್ರತ್ಯಯಃ ತತ್ರ ಆಕಾರಲೋಪಃ, ಯತ್ರ ಹಲಾದಿಃ ಪ್ರತ್ಯಯಃ ತತ್ರ ಕಿಮಪಿ ನ ಭವತಿ. ದೇರ್ ಇಸ್ ನೋ ಕಾರ್ಯ ಅಟ್ ಆಲ್. ವಿಶ್ವಪಾಭ್ಯಾಂ ಜಾಯಿನ್, ಇಟ್ ಇಸ್ ವಿಶ್ವಪಾಭ್ಯಾಂ. ವಿಶ್ವಪಾ ವಿಶ್ವಪಾಭ್ಯಾಂ ವಿಶ್ವಪಾಭಿಃ ಇತ್ಯಾದಿ. ಏವಂ ಶಂಖಧ್ಮಾದಯಃ. ಶಂಖಂ ಧಮತಿ, ಧ್ಮಾ ಧಾತುಃ. ತಸ್ಯಾಪಿ ಶಂಖ ಧ್ಮಾ ಇತಿ ಸ್ಥಿತೆ ಆಕಾರಾಂತಃ ಧಾತುಃ. ಯಥಾ ವಿಶ್ವಪ ಇತ್ಯಸ್ಯ ರೂಪಂ ತಥಾ ಶಂಖಧ್ಮ. ಸೊ ದೇರ್ ಆರ್ ಎನಿ ಧಾತು ಎಂಡಿಂಗ್ ವಿತ್ ಆಕಾರ, ಇಫ್ ಯು ಡಿರೈವ್ ಫಾರ್ಮ್ಸ್ ಇಟ್ ವುಡ್ ಬಿ ಲೈಕ್ ದಿಸ್ ಶಂಖಧ್ಮಾದಯ. ಓಕೆ, ಸೊ ನೋ ದಿಸ್ ಇಸ್ ದ ಎಂಟೈರ್ ಫಾರ್ಮ್. ವಿಶ್ವಪಾಹ ವಿಶ್ವಪೌ ವಿಶ್ವಪಾಹ. ಹೇ ವಿಶ್ವಪಾಹ, ಹೇ ವಿಶ್ವಪೌ, ಹೇ ವಿಶ್ವಪಾಹ. ವಿಶ್ವಪಾಂ ವಿಶ್ವಪೌ ವಿಶ್ವಪಃ ಆಕಾರ ಲೋಪಃ. ಏವಂ ವಿಶ್ವಪಾ ಇತ್ಯಪಿ ಅಸ್ತಿ. ಪ್ರಾತಿಪದಿಕಮಪಿ ವಿಶ್ವಪಾ, ತೃತೀಯ ಏಕವಚನೆಯಪಿ ವಿಶ್ವಪಾ. ವಿಶ್ವಪಾಭ್ಯಾಂ ವಿಶ್ವಪಾಭಿಃ ವಿಶ್ವಪೇ. ವಿಶ್ವಪಾ ಏ ಇತಿ ಸ್ಥಿತೆ ಆಕಾರಸ್ಯ ಲೋಪೇ ವಿಶ್ವಪೇ. ವಿಶ್ವಪಾಭ್ಯಾಂ ವಿಶ್ವಪಾಭ್ಯಃ ವಿಶ್ವಪಃ. ಸೊ ನೋಟಿಸ್ ದಟ್ ವಿಶ್ವಪಃ ಅಕರ್ಸ್ ಎಟ್ ತ್ರೀ ಪ್ಲೇಸಸ್, ದ್ವಿತೀಯ ಬಹುವಚನ, ಪಂಚಮಿ ಷಷ್ಠಿ ಏಕವಚನ. ಓಕೆ, ಸೊ ವಿಶ್ವಪಃ ವಿಶ್ವಪಾಭ್ಯಾಂ ವಿಶ್ವಪಾಭ್ಯಃ, ವಿಶ್ವಪಃ ವಿಶ್ವಪೋಃ ವಿಶ್ವಪಾಂ, ವಿಶ್ವಪಿ ವಿಶ್ವಪಾ ಇ ಆಕಾರಲೋಪೇ ವಿಶ್ವಪಿ ವಿಶ್ವಪೋಃ ವಿಶ್ವಪಾಸು. ಸೊ ದರ್ ಇಸ್ ನೋ ಕಾರ್ಯ ಅಟ್ ಆಲ್, ಇಟ್ಸ್ ವೆರಿ ಸಿಂಪಲ್. ಸೊ ಇನ್ ದ ಫಸ್ಟ್ ಫೈವ್ ಇಟ್ಸ್ ಓನ್ಲಿ ಸಂಧಿ. ದೆನ್ ಇಫ್ ಇಟ್ ಇಸ್ ಆಕಾರ, ಯದಿ ಅಜಾದಿ ವಿಭಕ್ತಿ ತರ್ಹಿ ಆಕಾರಲೋಪ, ಹಲಾದಿಶ್ಚೇತ್ ವಿಭಕ್ತಿ ಕಿಮಪಿ ನ ಭವತಿ. ಅಮಂಗ್ ಆಕಾರ ಅಂತ ದರ್ ಆರ್ ಅದರ್ ಕ್ಯಾಟಗರಿ ವೇರ್ ದ ಆಕಾರ ಡಸ್ ನಾಟ್ ಬಿಲಾಂಗ್ ಟು ಎ ಧಾತು. ವಾಟ್ ಹ್ಯಾಪನ್ಸ್? ಸೊ ಧಾತೋಃ ಕಿಂ, ಆತೋ ಧಾತೋಃ ಇತ್ಯತ್ರ ಧಾತೋಃ ಇತಿ ಕಿಮರ್ಥಂ ಉಚ್ಯತೆ? ಯತ್ರ ಧಾತುಃ ನಾಸ್ತಿ, ಆಕಾರಾಂತಂ ಪ್ರಾತಿಪದಿಕಮಸ್ತಿ ಕಿಂತು ಧಾತುಃ ನಾಸ್ತಿ, ತತ್ರ ಅಸ್ಯ ಸೂತ್ರಸ್ಯ ಪ್ರವೃತ್ತಿಃ ಮಾ ಭೂತ್ ಇತ್ಯೇತದರ್ಥಂ ಧಾತೋಃ ಇತ್ಯುಚ್ಯತೆ. ಕಿಮುದಾಹರಣಂ? ಹಾಹಾನ್ ಇತಿ ದತ್ತಂ ದೀಕ್ಷಿತೈಃ. ಧಾತೋಃ ಕಿಂ ಹಾಹಾನ್, ಕಃ ಅರ್ಥಃ? ಹಾಹಾ ಇತಿ ಕಶ್ಚನ ಗಂಧರ್ವಸ್ಯ ನಾಮ. ದ ಅಮರಕೋಶ ಸೇಸ್ ಹಾ ಹಾ ಹೂ ಹೂಶ್ಚೈವ ಮಾದ್ಯ ಗಂಧರ್ವಾಸ್ ತ್ರಿದಿವೌ ಕಸಾಂ. ದೇವತಾನಾಂ ಸ್ಥಾನೆ ಯೇ ಗಂಧರ್ವಾಃ ಸಂತಿ ತೇಷಾಂ ನಾಮಾನಿ ಸಂತಿ ಹಾ ಹಾ ಹ ಇತಿ ಕಶ್ಚನ ಗಂಧರ್ವಸ್ಯ ನಾಮ. ಇಸ್ ಅ ನೇಮ್ ಆಫ್ ಅ ಗಂಧರ್ವ ಆ್ಯಂಡ್ ಇಟ್ಸ್ ಅನ್ ಅವ್ಯುತ್ಪನ್ನ ಪ್ರಾತಿಪದಿಕ, ಮೀನಿಂಗ್ ಯು ಕೆನಾಟ್ ಗಿವ್ ಅ ಡಿರೈವೇಷನ್. ಸೇ ವಿಶ್ವಪಾ ಹ್ಯಾಡ್ ಎ ಡಿರೈವೇಷನ್ ವಿಚ್ ಐ ಸೆಡ್ ವಿಶ್ವಂ ಪಾತಿ ಇತಿ ವ್ಯುತ್ಪತ್ತಿ ವಿದ್ಯತೆ. ಹಾ ಹಾ ಇತ್ಯಸ್ಯ ತು ತಥಾ ವ್ಯುತ್ಪತ್ತಿ ನಾಸ್ತಿ, ಅವ್ಯುತ್ಪನ್ನಂ ಪ್ರಾತಿಪದಿಕಂ. also, if it is an avyutpanna pratipadika, how does it get pratipadika samya? Since vishvapa ityatvatu vishvampati iti samasaha, samasatvate krutarjita samasascha iti pratipadika samya jata. Atvatu samasaha nasti. Since it is avyutpanna, it is not kridanta, it is not tarjitanta, it is not samasa also. So, how do we get pratipadika samya for this? अर्थवत अधातुर अपत्ते प्रातिपदिकम् हेमा भगिनी वदति सो देयर आर एज आई टोल्ड देयर आर नॉट मेनी एग्जांपल्स फॉर दैट पर्टिकुलर सूत्र बिकॉज़ जनरली मेनी ऑफ द वर्ड्स हैपन टू बी कृदंतास और तद्यतांतास और समासास सो दिस इज वन ऑफ द वर्ड्स वेयर देयर इज नो व्युत्पत्ति यदि अव्युत्पन्न शब्दः तदा अर्थवत अधातुर अपत्ते प्रातिपदिकम् इत्यनेन प्रातिपदिक संज्ञा विधीयते अयम धातोः आकारः नास्ति द आकार विच हियर इन हाहा डज नॉट बिलोंग टू अ धातु तस्मात् आतो धातोः इति सूत्रस्य प्रवृत्तिः नास्ति वी डू नॉट अप्लाई आतो धातोः तेन किं भवति आदौ कोऽपि विशेषः नास्ति हाहा हाहौ हाहा हाहा सु ऋत्वं विसर्गः हाहा वृद्धिः हाहौ सवर्णदीर्घः हाहा हाहाम् अमिपूर्वः हाहाम् वृद्धिः हाहौ अग्रे किं भवति विश्वपा शस् इति स्थिते अतोलोपः इति लोपे विश्वपः इति जातम् अत्र तु हाहा शस् इति स्थिते प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घः भवति तथा किं भवति हाहास् पूर्वसवर्णदीर्घे कृते तस्मात् छसो नः पुंसि तस्मात् कृतपूर्वसवर्णदीर्घात् शसः सकारस्य नकारः स्यात् पुल्लिङ्गे इत्युक्तत्वात् सकारस्य स्थाने नकारादेशे हाहान् वेर् इट् वास् विश्वपः नौ इट् बिकम्स् हाहान् बिकास् आतो धातोः विल् नाट् अप्लै फार् सच् शब्दस् वेर् देर् इस् नो धातु अत एव तत्र उक्तम् आकारान्तः यः धातुः तदन्तं यदङ्गम् इत्यादि सो हाहान् नेक्स्ट् ता सवर्णदीर्घः हाहा किं भवति हाहा इत्यस्मात् आ प्रत्ययः अकत्सवर्णे दीर्घः इत्यनेन सवर्णदीर्घे पुनः हाहा इत्येव भवति हाहा हाहाभ्यां हाहाभिः ङे वृद्धिः हाहा ए इति स्थते आकारस्य लोपः न भवति किन्तु आद् एचि परे वृद्धिः इति वृद्धौ हाहै रूपम् हाहा हाहाभ्यां हाहाभिः हाहै हाहाभ्यां हाहाभ्यः नसिगसोः दीर्घः दीर्घः नाम सवर्णदीर्घः अकस्सवर्णे दीर्घः हाहा इत्यस्मात् ङसि प्रत्ययो वा भवतु ङस् प्रत्ययो वा भवतु उभयत्र लशक्वतथिते इति ङकारस्य संज्ञा अस् इत्येव शिष्यते हाहा अस् अकस्सवर्णे दीर्घः इत्यनेन सवर्णदीर्घे कृते हाहास् तस्य ऋत्वे विसर्गे हाहाः हाहाः हाहाभ्यां हाहाभ्यः पुनः हाहाः ओसि वृद्धिः द पङ्क्तीस् आफ़् दीक्षितर् दट् इस् वाट् इस् सो प्रिटी अबौट् सिद्धान्तकौमुदी इस् दट् इस् सेण्टेन्सस् आर् सो प्रिसैस् इट् इस् वाट् ही वाण्ट्स् टु टेल् इन् वेरि काम्पाक्ट् मेनर् सो ओसि वृद्धिः वृद्धिरेचि इत्यनेन वृद्धौ हाहा ओस् इति स्थिते वृद्धिरेचि इति वृद्धौ हाहौस् ऋत्वं विसर्गः हाहौः हाहाः हाहौः हाहां पुनः हाहा आम् इत्युच्यते सवर्णदीर्घः हाहां ङौ आद्गुणः हाहे ङि प्रत्ययपरे हाहा इ इत्युच्यते हाहे वसुजि No, the bhasamya is there. It is called bha, but we cannot apply ato dhato. यस्येति च वेर् विल् यु अप्लै यस्येति च इट् सेस् ईकारे तद्धिते च परे अत्र तद्धितः अपि नास्ति ईकारः अपि नास्ति देर् इस् नो ईकार यस्येति च अप्लैस् ईकारे तद्धिते च परे इट् हेस् टु बि अ दीर्घ ईकार और् इट् हेस् टु बि तद्धित सो वि केनाट् अप्लै यस्येति च हियर् There is no pratyaya which starts with either dirgha ikara and it is not a tathita. Yeah, yeah, yeah. Bhasamya is there, but there is no karya which utilizes the bhasamya. Okay. So, sorry, please repeat. Where did we negate? No. We can use padasamya is also not negated. Padasamya is also there. It has both bhasamya and padasamya as it applies. But there are no rules which would apply to this particular case, which would utilize either the bhasamya or padasamya. Yeah, yeah, it has bhasamya. It has padasamya, but no use, I mean. There is no The rule which would utilize either bha or parasamya and which would apply here. Like say, for example, a karya which would utilize a parasam. Ha, correct. So if in one particular case there is either parasamya or parasamya, then bhasamya would apply because of akadara deka samya. But in this case, for example, I mean, when there is haha e, it would have bhasamya. If it is haha bhyam, it would have padasamya. But either samya is not leading to any karya in case of haha. Yeah, I mean, the bhasamya and padasamya will always be there. I mean, if it is an azadi pratyaya, it will always have bhasamya. If it is a haladi pratyaya, it will always have padasamya. Like even Rama Bhyam, there is padasamya. But we do not use that padasamya for anything. If it were a nakaranta pada, nakaranta pratipadika, then we could have used an aloba pratipadika antasya or something. If any karya is not there, even if the samya is there, we do not... focus on it because it is of no use. Any samya is always useful only for the karya. Hahan is not a pratipadika. Hahan is not a pratipadika. Haha is the pratipadika. Because the nakara is from the pratyaya. It is from the shas. So that is when Aloba Pratipadikantasya says Pratipadika Samyakam Yat Padam. Hahan is not a Pratipadika. Only Haha is the Pratipadika part of it. Okay. So now Hahe Shesham Vishwapavat. Wherever there is no, I mean, Shesham means wherever there is a halali vibhakti, it would be like Vishwapa. So if you look at the haha shabda, you see that there are only whatever is marked in red is where there is a difference. These are all the ajadi pratyayas. Yatra bhasamya, yatra atodhatoho ityasya pravrittihi, tatra asmin, in this it wouldn't apply. So you see that there could or could not be a rupa difference. It does not mean that there is also always a difference in rupa. Say haha is like Vishwapa. There you get atodhatohu and here you do savarna dirgha. The rupa is the same, but the sutra will definitely vary. So in all these marks in red, there will either be a rupa difference or a sutra difference in deriving that particular form. So ajadishu vibhaktishu bhedaha drishyate. Anyatra tu yatha vishvapashabde tatha atrapi. Okay. Any other questions? Okay, there's one more small point which he says in this respect to this sutra. there are cases where, I mean, as he just proved, if it is not a dhatu, yadi akaraha dhatoho akaraha nasti, tarhi ato dhatoho ityasya pravrutti na bhavati. Yathatra uktam, as we demonstrated in haha shabda, if the akara does not belong to a dhatu, there would be no lopa. But we see that Panini himself has used some forms, some akaranta shabda, where he has deleted the akara, even if the akara does not belong to a dhatu. So what do we do in such cases? We ask, ataha iti yoga vibhagat adhatorapi akara lopaha kvachit, in a few cases. Always you should remember yoga vibhaga. Yoga vibhaga means splitting a sutra. It works only in very rare cases where there has already been a shishta prayoga. Shishta prayoga sadhanartham eva kvachit yoga vibhagaha iti kriyate. Vidyamanaha yogaha. Yogaha nama sutram. Yoga means a sutra. Yogasya vibhagaha. Ato dhatoho iti ekam sutram asti. Tat sutram vibhajyate. Ataha iti ekam sutram. Dhatoho iti aparam sutram. Udaharanam sahadayati ktvaha shnaha. Ktva iti pratyahasti. Ktva iti akaranta shabdaha. Tasya shashti vibhakto ktvaha iti upaktam paninina. Evameva shna iti vikarana pratyaha. Tasya shashti vibhakto shnaha iti upayuktam. Actually, if we go by the rule, like haha, shashti of haha is hahaha. So the shashti of ktva should be ktvaha. And the shashti of shna should be shnaha. But Panini has used as ktvaha and shnaha, which is like vishvapaha, where he has deleted the akara. So what do we do it? For example, he says, samase anai purve ktvo lyap, ktvaha lyap, ktvaha, ktva pratyasya sthane lyap bhavati. Ktva ityasya shashti vibhaktau ktvaha iti upayuktam. Kramascha ktvi. Ktva I iti sthite akaram lopayitva ktvi iti prayuktam paninina. Similarly, halaha shnaha shanajhau. Shnaha, shna ityasya shashti vibhaktau shnaha. So these are all the cases where Panini has gone against his own rule and saying that the akara lopa is only for a dhatu. Even if this ktva and shna are not dhatus, he has deleted the akara. So what do we do there? We split the sutra. Ataha and dhatoho are two separate sutras. Ataha is the only sutra. What does it mean? If there is an anga which ends in akara, any anga which ends in akara and has bhasamya, the akara would be deleted. Kasyapi angasya. Akaraha ante asti chet, bhasamya asti chet, tasya akarasya lopaha bhavati. Ityarthaha. Dhatoho iti sutrasya tu, sayeva arthaha. Akarantaha yaha dhatuhu, tadantasya angasya lopaha syat. So now this particular sutra, ataha, which is a split sutra, cannot be utilized everywhere. If we use it everywhere, even for haha shabda, it would have to apply. But it does not apply so. Any sutra which is derived from yoga vibhaga will apply only where there has already been a shishta prayoga, only where the bhashyakara accepts it. So all the yoga vibhagas are generally told by the bhashyakara. So only where the bhashyakara uses it to derive some form like this, we use yoga vibhaga. So you cannot argue that you will use this sutra everywhere. So where there has been such prayoga, where the akara has been deleted even if it does not belong to a dhatu, tatra etayoho dhatutva bhavat kathamal lopaha iti chet yoga vibhagam krutva ktva ityasmat aspratyaye krate ktva as ataha iti vibhaktam sutram. It is not the original sutra. The sutra has been split, and using that sutra we can delete the akara here to get ktvaha evam shnaha. So all these we do for defending forms which have already used by, in this case, which has been used by Panini. So this is for using yoga vibhaga, some cases. That is why he says, kvachit, keshuchit udaharaneshu, adhator api akara lopaha. Dhatoho akara hanasti chedapi lupyate, yoga vibhagat. Any questions? No.
Basuji. Sorry. Yes. I mean, what do you mean by it should make sense? Yeah, the sen, the artha for that sutra is the same as what is the artha for ato dhatuhu. Akarantahayah dhatuhu. Yes. Yeah, exactly. The ataha will be taken to that. And the artha is the same as what is the artha for the original sutra. Anaipurve. Yes. This is where you know the rule that the ktva and lyap. If it is a plain dhatu, we use ktva, and if there is an upasarga, we use lyap. So lyap is not an independent pratyaya. It comes as an adesha for ktva when there is a samasa. There is a samasa, gati samasa between the upasarga and the dhatu. So wherever there is an upasarga, the ktva will be replaced by lyap. That is why we say gatva, agatya, patitva, prapathya, so on. That sutra is not intended here. It's just the usage of ktvaha. No, nothing more than that. You don't need to worry about the meaning of these three sutras. They're only to show the prayoga of Panini. Any other questions? Sure. Yes. Not now, because he goes on into further things where it's a further question on this particular thing. So if you want, I can have it before next class or sometime. But I think it's too heavy for this, for now. Anything else? Okay. Inacha samam nayamati gambhi maheshwara tasmim vyakaranam proktam tasmai paninaye namaha. Vakyakaram vararuchim bhashyakaram patanjalim paninim sutrakaram cha pranadosmi manitrayam mitrayam namaskritya tatukti paribhavya cha vyakarana siddhanta kaumudiyam virachyate. So the next class is on Monday, as usual.